ॐ सत्यं प्रपद्ये ऋतं प्रपद्ये अमृतं प्रपद्ये प्रजापतेः प्रियान्तनुगमनाः काम् प्रपद्ये इदमहम् पञ्चदशेन वज्रेण विदन्तम् भ्रातव्यमवक्रामामि योऽस्मान् द्वेष्टि यम् च वयम् दुष्मः भूर्भुवः सुवः हिम् प्रभोवाजाभिद्यवः अविष्मन्तो घृताक्ष्या देवाञ्जिकादिसंमयोः अग्नाया हि वीतये घ्राणो हव्यदातये निहोदासस्य परिगटे अन्त्वा समिद्भिरङ्गिरः घृतेन वर्धयामसि गृहक्षोचायविष्ट्या हनः पृथश्रवायम् अच्छादेव निवासति बृहदग्ने सुवीर्यम् ईडेऽन्यो नमस्य स्थिरः समाविशतः समग्निर्ध्यते वृषाः वृषाग्निः समिध्यते अश्वो न देववाहनः तगुम् हरिष्मन्तकीरते वृषणन्ता वयम् वृषन् वृषाणः समिधीमहे अग्ने दीर्घिरम् बृहते अग्निम् दूतम् वृणीमहे होतारम् विश्ववेदसम् अस्य यज्ञस्य सुकृतम् समिध्यमानोऽध्वरे अग्निः पावकगीत्यः शोचिष्केशस्तमीमहे समिद्धो अग्न आहुत देवानियक्षिस्वध्वर गृह्यभ्यमाणसि आजुहोदुपस्यत अग्निम् प्रयत्यध्वरे ब्रेध्वगृह्यवाहनम् त्वम् वरुणहुतमित्रो अग्ने त्वाम् बध्यन्ति मतिभिर्मतिष्ठाः त्वे वसुसृणनाय सन्तु यूयम् पात स्वस्तिभिः सदा नः अग्ने महागुम्हसि ब्राह्मण भारत असावसौः देवेऽर्थमन्विद्धः विष्ठितो विप्रानुमजितः कविशस्तो ब्रह्मजगुंसितो कृताहवनः प्रणेर्यज्ञानाः तोर्निर्हव्यवाज आस्पात्रम् जुहोर्देवानाम् रमसो देवपानः अरागुञ्जिवाग्ने नैमद्देवानुस्तम् परिभोरसि आवह देवान यजमानाय अग्निमग्न आवह सोमावह अग्निमावह प्रजापतिमावह अग्ने सोमावावह इन्द्राग्नीयावह इन्द्रमावह महेन्द्रमावह देवागुम् आज्यवागुम् आवह अग्र्यगम् होत्रायावह संमहिमानमावह आचार्ये देवानवः स्वेजायजादवेदः अग्निर्होतावे त्वग्निः होत्रम् वे कृप्रावित्रम् स्मो वयम् साधुते यजमानदेवता घृतवते मध्वर्योऽस्तु जमास्य स्व देवायुवम् विश्ववाराम् ईडामहे देवागुम् ईडेऽन्यान् नमस्याम नमस्यान् यजाम यज्ञियान् समिधो अग्नाद्यस्य वियन्तु रमणवादग्नाद्यस्य वेतु इडो अग्नाद्यस्य वियन्तु बलिहिरग्नाद्यस्य वेतु स्वाहाग्न्यम् स्वाहा सोमम् स्वाहाग्न्यम् स्वाहा प्रजापतिम् स्वाहाग्ने सोमौ स्वाहेन्द्राग्ने स्वाहेन्द्रम् स्वाहा महेन्द्रम् स्वाहा देवागुम् आज्यपान् स्वाहाग्निगम् होत्राग्निषाणाः अग्नाद्यस्य वियन्तो अग्निर्भद्राणि सङ्घनत् द्रविणस्य विपन्ययाः समिद्धः शुक्राहुतः द्विषाणो अग्निराज्यस्य वेतो त्वगुम् सोमाधिसत्पतिः त्वगुम् राजोतवृत्रः तम् भद्राधिकृतुः विषाणस्वामाद्यस्य हविषा वेतो अग्न्यप्रत्रेण जन्मना शुम्भानस्तनुभग्स्वाम् कविविप्रेण वावधे विषाणो अग्निराज्यस्य वेतो सोमगेर्भिष्पा वयम् वर्धयामोवचो विदः सुमणेको नाविश विषाणस्वामाद्यस्य हविषो वेतो अग्निर्मोर्च्छा दिवः प्रकुत पृथिव्या अयम् अपागम् नेतागम् जन्मते भुवो यज्ञश्च रजसश्च नेता यत्रा निर्भ्यः सजते शिवाभिः दिविमोर्धानन्दधिजेषु परिषाम् जिह्वामग्ने च गृहे हव्यवाहम् प्रजापतेनत्वलेतान्यः विश्वाजातानि परितापभूव यत्कामास्तेजपमस्तन्ना अस्तु वरेभ्यस्यामपजगोरीणाम् सवेदपुत्रपितरहिंसमातरम् असोऽनुभवत्सभुवत् पुनर्मघः सद्यामोन्नान्तरिक्षहिंससुभः स विश्वाभुवाभवत्साभवत् अग्ने सोमासवेदसः सहोदेवनतङ्गिरः सन्देवत्राभोगसुः इवमेतानि यविरोचनानि अग्नित्य सोमधक्रतो वसतम् युवकम् सिन्धोगम् रभितस्तेन पद्यान् अग्ने सोमावमुञ्चरङ्गभेदान् इन्द्राग्ने रोचनादिवः परिवाजेषु भोषसः तद्वाञ्च विप्रवेर्यम् शिरसद्वृत्रमुदसमादिवाजम् इन्द्राय अग्ने सहुरेतपर्यात् यदद्यन्तामसव्यस्य भूरेः सहस्तमासहतावादयन्ताः येन्द्रदानशिवम् वयम् श्रयित्वानकम् सदासहम् परिषच्छमोदये प्रससाहिते पुरुहोदशत्रोन् ज्येष्ठस्ते सुष्मरिहरादिरस्तु इन्द्राहरदक्षिणे नामसूने पतिसिन्धो नामदेवतीनाम् महाम्यन्दोजवोजसा पर्जन्यावृष्टिमागम्यिव सोमैः वत्सस्य वावृधे महागम्यन्द्रो निवृताचर्षणिप्राः उतद्विवरहामिनस्सहाभिः अस्मद्रियग्वावृषे वीर्याय पुरःपुरःस्वपुरःकर्तृभिर्भोन् विप्रेः देवागुम्बुशतोयविष्ठा विद्वागुम्बृतोगुम्बृतुपयेः ये दैव्यादित्यस्येऽभिरग्ने गुम्होतेनामस्यायतिष्ठः अग्नेज्ञस्यष्टकृतम् अयानग्निरग्ने प्रियाधामानि अयाक्सोमस्य प्रियाधामानि अयानग्ने प्रियाधामानि अयाः प्रजापते प्रियाधामानि अयानग्ने सोमया प्रियाधामानि अयारिन्द्राग्नया प्रियाधामानि अयारिन्द्रस्य प्रियाधामानि अयान्महेन्द्रस्य प्रियाधामानि अयाः देवानामाज्यपानाः प्रियाधामानि यक्षदग्नेलोदप्रियाधामानि यक्षस्वम् महिमानम् आयजतामे ध्यागिषः कृणोदुसोऽध्वरा जातवेदाः द्विषदागम् हविः आज्ञेयदद्य विशो अध्वरस्य होदः पावकसो देवेऽत्रगुम्भयज्वाः ऋताय जातुमहिना वियद्भोः अव्यावहयविक्षयाते अद्य उपहोदगम् रसन्तरगम् रहतिव्या उपमारसन्तरगम् रहतिव्याह्पयताम् उपहूतम् वामदेव्यगम् सहान्तरिक्षेण उपमा वामदेव्यगम् सहान्तरिक्षेण ह्वयताम् उपहूतम् बृहत्सह दिवा उपमा बृहत्सह दिवाह्वयताम् उपहूता सप्तहोत्राः उपमा सप्तहोत्राः ह्वयन्ताम् उपहूता धेनुस्तः ऋषभा उपमा धेनुस्तः ऋषभाह्वयताम् उपहूता भक्षस्सखाः उपमा भक्षस्सखाः ह्वयताम् उपहूता ओ इडापहूता उपहूतेणाः उप अस्माकम् इडाः ह्वयताम् इडापहूता उपहूतेणाः मानवे कृतपदे मैत्रावरुणे ब्रह्मदेवगतमुपहूतम् देव्याध्वर्यमुपहूताः उपहूता मनुष्याः एमम् यज्ञमवान् ये यज्ञपतिम् बद्धान् उपहूतेभ्या वा पृथिवी पूर्वजे ऋतावरे देवी देवपुत्रे उपहूतो यजमानः उत्तरस्याम् देवयज्ञायामुपहूतः भूयदिह विष्करणमुपहूतः दिव्येधामन्युपहूतः इदम् मे देवाभिद्युषन्तामिदस्मिन्नुपहूतः विश्वमस्य प्रियमुपहूतम् विश्वस्य प्रियस्योपहूतस्योपहूतः देवम् बलिः असुवने मृधेयस्य वेतो देवो न राशगुंसः असुवने मृधेयस्य वेतो देवो अग्निस्मिष्टकृत् शुद्रविना मन्द्रः कविः सत्यमन्मा यजीहोताः होतुर्होतुरायजीयान् अग्नेयान् देवानयात् यागम् अभिप्रेः एते होत्रे अमत्सदा तागुंसंशेषम् होत्राहम् देवम् गमान् दिवि देवेषु यज्ञमेन हेमम् षष्टकृच्चाग्ने होता भोः वसुवने वसुधेयस्य नमो वागेवीः इदन्द्यावापृथिवी भद्रमभूत् आत्मसोक्तवाकम् उदनमो वाकम् हृद्ध्यास्मसोक्तोक्षमग्ने रघुंसोहोक्तवाकसि उपश्रुतो दिवपृथिव्याः ओमन्वतीतेऽस्मिन् यज्ञे यजमानद्यावा पृथिवीस्ताः शङ्कये गीरदानो अत्र स्नो अप्रवेद उरुगव्योति अभयम् कृतौ विष्णुद्यावादेत्यापा शम्भवौ मयो भुवौ ओर्जस्पदे च वयस्पदे च सोपचरणाय स्मधिचरणाय तयोराविरे अग्निरदगम् हविरजुषद हवेवतमहोऽध्यायोगत सोमयिरगम् हविरजुषद हवेवतमहोऽध्यायोगत अग्निरदगम् हविरजुषद हवेवतमहोऽध्यायोगत प्रजापतिरदगम् हविरजुषद हवेवतमहोऽध्यायोगत अग्ने सोमाविदगम् हविरजुषेताम् अविवृधेताम् महोऽध्यायोः क्राताम् इन्द्राग्ने इदम् हविरजुषेताम् अविवृधेताम् महोऽध्यायोः क्राताम् इन्द्र इदगम् हविरजुषद अविवृधतमहोऽध्यायोगत महेन्द्र इदगम् हविरजुषद अविवृधतमहोऽध्यायोगत देवाज्यवाज्यवजुषन्त अविवृधन्तमहोऽध्यायोः कृत अग्निरहोत्रेणेदगम् हविरजुषद अविवृधतमहोऽध्यायोगत अस्याम् सद्धोत्रायाम् देवम् गमायाः आशास्तेजम् यजमानोऽसौ आयुराशास्ते सुप्रजास्तुमाशास्ते सजातमनस्यामाशास्ते उत्तराम् देव यज्ञामाशास्ते भोजाविष्करणमाशास्ते दिव्यन्धामाशास्ते विश्वम् प्रियमाशास्ते हृदयेण हविषाशास्ते तदस्यात्तदध्यात् तदस्मै देवानासन्ताम् अयज्ञदेवो देवेभ्यो वनत् अयमग्नेर्मानुषाः इष्टम् च वेदम् च उभेषणोऽद्या वा पृथिवी अगुम्भरस्तादाम् यजगतर्वामस्येदम् च नमो देवेभ्यः तच्छय्यो नावृणीमहे गातम् यज्ञाय धातम् यज्ञपदये दैवे स्वस्तिरस्तु नः स्वस्तिर्मानुषेभ्यः ओर्ध्वम् जिगातुभेषजम् षण्णास्तु द्विपदे षञ्चतुष्पदे आप्याय स्वसन्ते इह त्वष्टारमग्रियन्तन्नस्तु दीपम् देवानाम् पत्ने विशतीरवन्तुनः रावन्तुनस्तु च देवायसादये या पार्थिवासो या अपामविभ्रते पानो देवे सुभवा शर्म यच्छत उदग्नामियन्तु देवपत्नेः इन्द्राण्यग्नायश्विनीराड् आरोदसेवरुणानि शृणोतु यन्तु देवेर्जुर्जनीनाम् अग्निर्होता गृहपतिः स राजाः विश्वावेदलिमा जातवेदाः देवानामुदयामृत्यानाम् यतिष्ठः स प्रयजतामृतावाः वयमुत्त्वा गृहपते जनानाम् अग्ने अकर्म सविधा बृहन्तम् अस्थोरिणो गार्हपत्यानि सन्तो ऋग्मेण नस्तेजसाधकंसिलाभि उपहोदकम् वसन्तरगम् सह पृथिव्याः उपमासन्तरगम् सह पृथिव्याः पयताम् उपहोदम् वामदेव्यम् सहान्तरिक्षेण उपमा वामदेव्यम् सहान्तरिक्षेण पयताम् उपहूतम् बृहत्सह दिवाम् उपमा बृहत्सह दिवाः पयताम् उपहूताः सप्तहोत्राः उपमा सप्तहोत्राः क्वयन्ताम् उपहूताधेनुस्सहरिणभा उपमाधेनुस्सहरिणभाक्वयताम् उपहूता भक्षसखाः उपमा भक्षसखाः क्वयताम् उपहूता ओ इडोपहूता उपहूतेडाः भो अस्माकम् इडाः क्वयताम् इडोपहूता उपहूतेडाः मानवे कृतवदे मैत्रावरुणे ब्रह्मदेव कृतमुपहूतम् हैर्याध्वर्यमुपहूताः उपहूता मनुष्याः एमै यज्ञमवान् ये यज्ञपत्नीम् वर्धान् उपहूतेभ्या वा पृथिवी पूर्वजे रतावरी देवी देवपुत्रे उपहूते यजमाना इन्द्राणी वा विषवा अतिशिलवसुपुत्रा अस्तरस्याम् देवयज्ञायापहूता भोजसिहविष्करणमुपहूता दिव्येधामन्नुपहूता इदम् मे देवाभिव्यसन्तामिजनस्मिन्नुपहूता विश्वमस्याप्रियमुपहूतम् विश्वस्य प्रियस्योपहूतस्योपहूता ॐ अञ्जन्ति त्वामद्भये देवयन्तः वनस्पते मधुना दैव्येन यदोऽध्वस्तिष्ठाद्रविणे अधत्तात् यद्वाक्षयो मातुरस्या उपस्थेः उच्छयस्व वनस्पते वष्पन् पृथिव्याधि सुमिति मीयमानः वर्चोधा यज्ञवाहसे समिद्धस्य श्रयमाणः पुरस्ताद् ब्रह्मवन्वानो अजरगम् सुवीरम् आहे अस्मदवतिर्बाधवानः उच्छयस्व महते सौभगाय ऊर्ध्वभूषण ऊदये तिष्ठादेवो न दविता ऊर्ध्ववाजस्य सलिताय दन्दिभिः बाधभ्यजिह्वयामहे ऊर्ध्वो नः पाक्यगुम्हसोनिकेतुनाः विश्वगुंसमत्रिनन्दः कृतेनवोर्ध्वाञ्जलसाय जीवसे पिता देवेषु नो मधुमः जातो जायते सुदिनत्वे अह्ना समर्या विधते वर्धमानः वनन्ति धीरा अवतो मनीषा देवयादि प्रभुतिर्तिवाचम् युवा सुवासाः परिवेदागात् स्वश्रेयान्भवति जायमानः सन्धीराः कवयमुन्नयन्ति स्वाधिया मनसा देवयन्तः ऋतुपाजामर्त्यः घृतनिःस्वाहुतः अग्निर्यज्ञस्य हव्यमान् रघुम् सपासो यतस्वितः इत्साधिया यज्ञवन्तः आचक्रमग्निमोदये तम् वर्ण उदमित्रो अग्ने त्वाम् वर्धन्ति मतिभिर्वसिष्ठाः ते वसुसुषणानि सन्तो यूयम् पातः स्वस्तिभिः सदानः होदायक्षरज्ञम् समिधातु समिधातु विद्धन्नाभा पृथिव्याः सङ्गते नामस्य पष्पम् दिवगिरस्पदे त्वाज्ञस्य होधर्यज होदायक्षत्तनो न पातमतिदेर्गर्भम् भुवनस्य गोपाम् ध्वाद्य देवो देवेभ्यो देवयानाम् अथो अनक्त्वे त्वाद्यस्य होदर्यज होदायक्षन्नराशकम् सन्दृशस्तन्द्रेकः प्रणेत्रम् गोभिर्वपाभान् स्याद्वीरैः शक्तिभानतयैः प्रथमयाभाहिरण्येश्चन्द्रेवे त्वाद्यस्य होदर्यज होदायक्षदग्निमिळगीरितो देवो देवागुम् आवक्षद्धूतो हव्यमानमूरः उपेमै यज्ञमुपेमान् देवो देवहूतिमवदुवे त्वाद्यस्य होदर्यज होदायक्षद्वर्हिः सुष्ठरेवोऽर्णम् वदाहस्मिने यज्ञे विचप्रजप्रसरागस्वादस्थम् देवेभ्यः एवेन दद्यवसवो रुद्राः नित्यास्वन्द्वप्रियमिन्द्रस्यास्तुवे त्वाद्यस्य होदर्यज होदायक्षद्वरदिष्टाक्कवश्योकोषधावनेदाताभिर्दिहताम् विपक्षाभिश्रयन्ता सुप्रायणा अस्मिनि यज्ञे विश्रयन्ता वृषाभिषोभियन्द्वाद्यस्य होदर्यज होदायक्षदुषासानक्ता बृहते सुपेशदामदेकपदिभ्यो योनिम् कृण्वाणे यज्ञस्पयमाने इन्द्रेण देवैरेदम् बर्हिः सीतताम् वेतामाद्यस्य होदर्यज होतायक्षत्रैव्याहोतारामन्द्रापोतारातवी प्रदेरसा शिष्टमद्यान्यक्करविदास्वभिगोर्तमन्यभोर्जासदमशेमैलेण धत्ताम् गीतामाद्यस्य होतर्यजा होतायक्षत्यस्व देवीरपसापस्तमाच्छिद्रमद्येनमपस्तन्वताम् देवेभ्यो देवेर्देवमाभियन्ताद्यस्य होतर्यजा होदायक्षत्तुष्टारमजिष्टोपायकुण्डेतोधाम् विश्वसंयशोधाम् पूर्वोपमकामकर्षणम् सुपोषपोषैः स्यात् सुवीरो वीरैर्भे त्वाद्यस्य होदर्यज होदायक्षद्वनस्पजमुपावस्रक्षद्भिजोष्टारकम् शशमण्डलः स्वदात् स्वशिरिर्वसात्रदेवो देवेभ्यो हव्याभाग्भे त्वाद्यस्य होदर्यज होतायक्षदग्निर्गस्वाहाज्ञस्य स्वाहा मेतुसस्वाहाः स्तोकानागस्वाहा स्वाहा कृतेनागस्वाहा हव्यसोऽहम्पीना स्वाहा देवागम् आहाज्यवान् स्वाहाग्निम् होत्राग्निराणाग्नाज्ञस्य वियन्तु होतर्यजा समिद्धो अद्य मनुषो दुरोणे देवो देवानिजुर्यादवेदः आचमः विक्रमः शिवित्वान् वन्दोदः कविरसिप्रचेताः कणोनपाशतस्य गानान् मध्वासमञ्जन् सदयाभियुक्त्वा मन्मानिधेभिर्दयज्ञबन्धन् देवत्राजगमह्यध्वरन्नः राजवंशस्य महिमानमेषाम् उपस्तोषामयजनस्य यज्ञैः ते सुकृतपश्रुतयोभिरन्धाः सुरन्त एवाभयानि हव्या आयुक्वानयेद्योपन्द्यश्च आयाज्ञे मधुभिः सजोषाः तम् देवानामधिः प्रहोदाः सगेनायक्षेषितो यदीयान् प्राचीनम् बर्हिः प्रतिशापृथिव्याः वस्तोरस्या विद्यते अग्रे अह्नाः व्यप्रसदे वितरम् वरीयः देवेभ्यो अजुदये स्योरम् विजस्वजेर्विजाविश्रयन्ताम् पदिभ्यो न जनयः शुम्भमानाः देवेः द्वारो बृहदेर्विश्वमिन्द्राः देवेभ्यो भवसु प्रायणाः आशश्वयन्ते जने उपागे उषासानक्ता सुरतान्ययोनौ दिव्ये योषणे बृहते सुरुक्मे अशिष्यकम् सुप्रविशन्दधाने दैव्याहोतारा प्रथमा सुवाचा विमानायज्ञम् मनुषो विदध्यै प्रचोदयन्ता विदधेषु कारु प्राचीनम् ज्योतिप्रतिशार्षन्ता आनो यज्ञम् भारते दूयमेतो इडामनुष्वधिहरेदयन्ते तिस्रो देवेर्बहिरेदज्ञस्योनम् सरस्वते स्वपदस्वन्तो यदिमे द्यावापृथिवेजनित्रे रूपैरपिकम् षद्भुवनानि विश्वाः समग्रहोदर्शतोरीयान् देवम् दष्टालिमधिलक्ष्य विद्वान् उपापशरत्मन्यासमञ्जन् देवानाम् पाशरुधाहवेगुंषे वनस्पतिः शमिता देवो अग्निः पतन्द्रहव्यम् मधुना हृदेन सद्यो जातोऽव्यमेदयज्ञम् अग्निर्देवानाम् भवत्पुरोगाः अस्य होदप्रतिश्रुतस्य भागे स्वाहागतकम् हवेदन्तु देवाः अग्निर्होता नो अध्वरे भागे सन्परिणीयते देवो देवेषु यज्ञयः परित्रिविष्ट्यध्वरम् याज्ञेन क्षीरिव आदेवेषु प्रयोदधर परिवाचपदः कविः अग्निर्हव्यान्यक्रमेण दशत्रत्राणि दातुः हरेरग्निः असुरद्वा जन्ये देवो देवेभ्यो हव्यावाद प्राञ्चोभिरिगन्वाणः जैनाभिः कल्पमाणः यज्ञस्यायप्रदिनन् उपप्रेष्य होदः हव्या देवेभ्यः देव्याः समिदानमुदमनुष्यारभध्वम् उपनयनमेऽध्यादुरः आशासानामेधपतिभ्याम् मेधम् प्रास्माग्निम् भरत स्थनेतपरिः अन्वेनम् मातामन्यता अनुपिता अनुभ्राता सगर्भ्यः अनुसखादयोक्षः उदीचेनागम् अस्य पतो निषत्तात् सूर्यम् चक्षुर्गमयात् पादम् प्राणमन्वसिजनात् द्विजश्रोत्रम् अन्तरिक्षमसम् पृथिवेगम् शरीरम् एकथास्य प्रजमाक्षतात् पुराणाभ्यामुखितदात् अन्तरेवोष्पानम् भारयतात् शेणमस्य पक्षः कृणुतात् सदा बाहू सदा दोषणीः कश्यपेवागुंसाः अच्छिद्रे श्रवणीः कवशोरोस्येकपन्नाक्षीवन्ता शर्भिगंशतिरस्यवङ्क्रयः तानक्षोच्चावयतात् गात्रम् गात्रमस्यानूनम् कृणुतात् भूवध्यरोहम् पार्थिवम् कृणतात् हस्तारक्षस्वगुंसजतात् अनिष्टमस्य भाराविष्ट उरोकम् मन्यमानाः नेद्वस्तोकेतनये पवितारवच्छमितारः अद्धिको शमेध्वम् शमिशमेध्वम् शमेध्वमद्धिको अद्धिकुश्चापामश्च उभौ देवानागम् समितारौः तामिमम् पशुग्रश्रपयताम् प्रभिद्वागुंसौः यथा यथा शश्रपणम् तथा तथा युषस्वसप्रशस्तमम् अजोदेवसहस्तमम् हव्यायुक्वान आसने इमन्नायज्ञमुपदेः इमा हव्याजातवेदो यजस्व स्तोकानामग्ने मेदतोऽधिरस्य भवतः प्राशानप्रथमो निषत्य घृतवन्तः पावगते स्तोकाश्चोदन्ति मेधसः स्वधर्मम् देववीरये श्रेष्ठन्नाधेहिवार्यम् तुभ्यग्रस्तोकाघृतश्च्युतः अग्ने विप्रायसन्त्य ऋषिश्रेष्ठः समिध्यते यज्ञस्य प्रापिता भव तुभ्यग्रश्चोदन्त्यधृगोसजीवः स्तोकासो अग्ने मेधुसोऽघृतस्य कविशस्तोऽभिहता भारुणागाः हव्यायुधस्वमेधिरा ओजिष्ठन्ते मध्यतो मेधमुद्धृतम् प्रते वयम् दधामहे चोदन्ति देवसो स्तोकाधिप्रति प्रतिताम् देवशोभिः आवृत्रहणावृत्रः विश्वस्मैः इन्द्रजातन्नमाभिरग्ने अर्वाग्नम् नाथोऽभिरगवेभिरिन्द्र अग्ने अस्मे होदमुत्तमेभिः होदायक्षलिन्द्राग्ने क्षागस्य उपाया मेधसः विषयदागम् हविः होदर्यद इष्यक्षन्मनसावस्य इच्छन् इन्द्राग्ने ज्ञात उपवासजातान् नान्यायवत्रमयस्त मह्यम् समाधियम् वाधयम् देवदक्षम् होदायक्षदिन्द्राग्ने पुरोडासस्य विषयदागम् हविः होदर्यद स्वामीरते अजन्तोत्याय अविष्पन्तः सदमिन्मानुषासः यस्य देवेरासुतो बर्हिरग्ने आन्यस्मे सुजिरा भवन्तो होतायक्षदग्नेम् पुरोडासस्य दृढदागम् हरिः होदर्यद गेर्भिरविप्रः प्रवदिमिच्छमानः ईत्तरीम् यशसम्पूर्णभाजम् इन्द्राग्नेवृत्रहणासुमद्राः प्रणोणव्यभिस्थिरतम् देष्णैः ेमृजिनाशमानाः पुत्रणागम् शक्तिर्णयच्छमानाः इन्द्राग्निभ्याङ्गम् पुषणा वदन्ति राक्यत्रे शिषणाया उपस्थेः अग्निगम् सुदेतकम् सुसङ्गृहन्तः अवस्यामस्तेऽज्ञम् जातवेदः त्वाम् गोतमरजगमहव्यवाहम् एवागन्वन्नवदस्य नाभिम् त्वर्गेष्यज्ञे प्रथमापनोद अस्याभिलाभवादस्तहोदाः विश्वस्मेदः सहभ्ये अथाहोदान्यीलोयजीराय इडःपदविषयन्नेद्यः सन् तन्पालनः प्रसमन्दे वयन्तः महोदायन्तो अनुग्मन् व्रते वयन्तम् बहुभिर्व सव्यैः त्रेजागृवागुंसो अनुग्मन् वृषन्तमग्निम् दर्शनम् बृहन्तम् भवन्तम् विश्वहारे दिवागुंसम् पदम् देवस्य नमसा प्रियन्तः श्रवश्रवश्रवाहवर्णवृत्तम् नामानिचतुर्थे यज्ञानि भद्रायाहन्तेर्णयन्तसन्दृष्टौ त्वाम् वर्धन्ति क्षितयः पृथिव्याम् प्रगुम्राय उभया सोजनानाम् परन्दातातरणे चेत्योभूः पिता माता सरमिन्मानुषाणाम् सपर्येण्यः स प्रियो विक्षर्भिः होता मन्त्रवर्षदा दाविदीयान् हन्त्वा वयन्तमादे दिवागुंसम् उपज्ञवाधो नमसा सुदेव तन्त्वा वयगुम् सुधियोनव्यमग्ने सुम्नाय वहीमहे देवयन्तः कामिशोरयोदीत्यानः दिवो अग्ने बृहदालोचनेन विशान् कविन् विश्वतिकम् सरस्वतीनाम् वितोषणम् मृषभञ्जर्षणीनाम् प्रेतेषणमिषयन्तम् पावकम् राजन्तमग्निमेतरङ्गयेनाम् स्वमग्ने चेतसमेतमर्तः यस्तानक्समिधाव्यजायम् याहुरिम् परिवेदानमोभिः विश्वेत्समामातधते त्वतः अस्मावुते महिमहे विधेम नमोभिरग्ने समिधोतहव्यैः वेदीसो न सहसो गेभ्यरुक्तैः आते भद्राजागम् सुमतौ यतेम आयस्थतम् सरोदसे विभासा श्रोभिश्च श्रवस्य स्वरुत्रः बृहद्भिर्वादैस्तविरेभिरस्मे रेवद्भिरग्ने वितरम् विभाहि द्रवद्वदोषुरमिध्येत्यस्मे भूरितवकायतनयाय पश्वः पूर्वेरुषो बृहते राजे अघाः अस्मे भद्रासोऽश्रवसानि सन्तु पुरोऽन्यग्ने पुरुधा त्वाय वसुमनिराजन् वसुधा ते अस्याम् पुरोणिहृत्ये पुरुमारसन्ति अग्ने वसुभिधरे राजनित्वे आभरणकम् शिक्षणम् वज्रबाहु अस्माकम् सूर्यस्य एभिः सवित्तम् वितरानायन् भवतायक्षलिम्नाग्ने इच्छाकस्य हविषात्ता मद्य मद्यतो मे नवद्भुतम् पुराद्वेषोऽभ्यः पुरा पौरुषेय्या गृभः घस्तान् नूनम् घासे अग्राणान्यवदप्रसमानाम् सुमक्षराणाम् शरुद्रियाणाम् अग्निष्पात्तानाम् पीवोपवसनानाम् पार्श्वरश्वादर्शितामदमुत्साधरः अङ्गानङ्गानवत्तानाम् करदयेन्द्राग्ने जुषेताकम् हविः होदरिजिना देवेभ्यो वनस्पते हवेगंषे हिरण्यवर्णप्रतिवस्ते अर्थम् प्रदक्षिणिद्रशया नियोज रस्य वक्षपतिभेरतिष्ठैः होताय क्षद्रनस्पतिमभिः विष्टतमयाभिष्टयाधनयाधिता यत्रेन्द्राग्नियोच्छागस्य हविषः प्रिया धामानि यत्र वनस्पतेः प्रिया पाशागुंषे यत्र देवानामाग्यपानाः प्रिया धामानि यत्राग्नेर्होदप्रियाधामानि तत्र इदम् प्रस्तुत्येवोपस्तुत्येवोपावस्रक्षते नभीयागम् समवकृत्वे करदेवम् देवो वनस्पतिः द्विरागम् हविः होदर्यदा विप्रेः देवागम् सुरोयविष्ठा विद्वागम् ऋतोगम् ऋतुमदेह एतैर्यादिभिरग्ने यगम् होत्रेणामस्यायतिष्ठः होदायक्षरग्नज्ञस्वृष्टकृतम् अयानग्निन्द्राग्नियोच्छागस्य हविषः प्रियाधामानि अयाग्मनस्पदे प्रियापाशागुंसे अयाग्देवानामाज्यपानाः प्रियाधामानि यक्षदग्नेर्होदप्रियाधामानि यक्षस्वम् महिमानम् आयुजतामे ज्यायुधः कृणोदसोऽध्वरा जातवेदाः युषदागम् हविः होदर्यजा उपोहयद्विषसम् वाजिनोगोः गेर्भिर्विप्राप्रपदविक्षमाणाः अर्वन्तो न काष्ठान्न क्षमाणाः इन्द्राग्नेजोहुमतो नरस्ते वनस्पतेरचलयाभिधाय विष्णतमया महिलान् विद्वान् महदेवत्रादिशो हवेगुंषे प्रचलातारभुदेशबोधः अग्निज्ञस्वकृतम् अयानग्निरिन्द्राग्नियोच्छागस्य हविषः प्रियाधामानि अयाग्मनस्पते प्रियापाशागुंसे अयाः देवानामाज्यपानाम् प्रियाधामानि यक्षदग्नेर्होदप्रियाधामानि यक्षस्वम् महिमानम् आयजतामे ज्याविषः कृणोदुसोऽध्वरा जातवेदाः दृढदागम् हविः अग्नेरद्यविशो अध्वरस्य होदः पावकशो देवेष्वविम्बीर्ज्वायजातमहिनावियद्भोः अव्यावहयोष्ठया ते अद्या देवम् वरेस्व देवम् देवैश्चात् सुवीरम् वीरैर्वस्तोर्भृजेतात्त्वाः प्रभृजेतात्यन्यान् राजा वरेष्वतोमदेवसुमदेवधेयस्य वेदेजा देवेद्वारस्सङ्घाते विज्ञेयम् जानन्शिला द्रुभा देवहूतो वत्सगी मे नात्वरुणामिमीया कुमारो बाणवजातो मे नार्वा रेणुर्गाणप्रणक्पसुवनेपधेयस्य वयम् जयजा देवे उषासारक्ताभ्यात्मनयज्ञप्रयत्यक्वेदापि नोऽनन्दैवेऽभिषप्रायाभिष्टागम् सुप्रीते सुभितेव सुवनेपधेयस्य वीतायजा देवेयोष्टेवसुखदेवयोरन्याघात्वेषागुंसियोजनान्यावक्षत्वसुभार्यायमायमानाय वसुमयवसुधेयस्य मेतायजा देवेवोर्जाहुतेजमोर्जमन्यावक्षत्सख्यम् च वेजमन्यानवेणमोर्वन्दयमानास्याम पुराणेन न वन्तामोर्जमोर्जाहुतेर्जयमाने अधातामसुमयवसुधेयस्य मेतायजा देवादेव्याहोतारानेष्टारापोतारा हताशलगुंसा वा भरद्वसोमनुपनेवसुधेयस्य वेदाङ्गजा देवेस्तिस्रस्तिस्र देवीर्दासरस्वदेवारदेव्याम् भारत्या नित्येरस्तक्षत्सरस्वदेवगम् रुद्रे यज्ञवामेधेवेणयासुमत्यासधमाजम् पदेवसुमनेवसुधेयस्य वियन्तयजा देवोऽनराजगुंसस्त्रशेषाहृक्षस्वरमिदेवगुंसजवृक्षावरदिवृहस्वरेन्द्रवहन्तिभित्रावरुणेदस्य होत्रमरहतोऽस्त्वमश्विनाध्वर्यवम् वसुमनेवसुधेयस्य मे तयजा देवो वनस्पतिर्वृढप्रावाघतेर्द यज्ञामग्रेणास्पृच्छदान्तरिक्षम् मध्येणा प्रापृथिवीपरेणाविजयस्य मे तेज देवम् परिहर्वारिदेनान्निशेषाभिप्रच्युतेनामप्रच्युतम् निकामसर्वम् पुरस्पार्षणेनाभिज्ञामसुमनेवधेयस्य मे तेज देवाज्ञस्पृष्टगच्छुद्रविणामन्नः कविः सत्यमन्मा इदे होताहोदुरहोदुरायदीजानज्ञेयान् देवानयाज्ञागमभिप्रेत होत्रे अमत्सदतांसहोत्राहम् देवम् गमान् दिविदेवेयज्ञमेव एमज्ञस्पृष्टगच्छाज्ञेयोनाभोपदुमनेऽध्येयस्य नमो वाचेभिः देवम् बलिः पथुमनेऽध्येयस्य वेदो देवेद्वारः असुवनेव विधेयस्य वियन्तो देवी उषासानक्ताः असुवनेव विधेयस्य वीताम् देवी जोष्ट्रीः असुवनेव विधेयस्य वीताम् देवी ऊर्जाहुदे असुवनेव विधेयस्य वीताम् देवादेव्याहोतारः असुवनेव विधेयस्य वीताम् देवेस्तिस्रस्तिस्रो देवेः असुमनेव विधेयस्य वियन्तो देवो नाशगुंसः असुमनेव विधेयस्य वेदो देवो वनस्पतिः असुमनेव विधेयस्य वेदो देवम् बलिहर्वारिदीनाम् असुमनेव विधेयस्य वेदो देवो अग्निस्पृष्टगत शुद्रविणामन्दः कविः सत्यमन्मा यजी होताः होतुर्होतुरा यजीयान् अग्नेयान् देवानयात् यागमभिप्रेः एते होत्रे अमत्सदा तागुंसेकम् होत्राम् देवम् गमाम् यज्ञमेदयेवम् सुष्ठगच्छाग्ने होता भूः असुमनेव विधेयस्य नमो भाग्येवीः अग्निमज्ञहोता रमणे कायञ्जमानः पचन् भक्तेः पचन् पुरोणाहम् बध्नन्निन्द्राज्ञिर्भ्याच्छागोपस्थाद्य देवो वनस्पतिरपरिन्द्राज्ञिर्भ्याञ्चागेणाघस्तान्तम् मे रस्तपतिपजदाग्रभेष्टामवीरभेदाम् पुरोणादेन त्वामद्यर्षारिभेदर्षेणान्नपालवर्णे कायञ्जमान बहुभ्यादङ्गदेभ्यगेतमे देवेशुभसुभार्यायक्षितारा देवादेवतानाग्निदुष्टान्यस्वादगुरस्पेदश्च होदर्भद्रवाच्याय प्रेषितो मानुषः सूक्तमाकार्य सूक्ता ब्रूहि।